सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशसुखकरी. विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम्. विद्याविहीनः पशुः. चतुर्थीविभक्तिः इति विषयः प्रचलन् अस्ति. चतुर्थीविभक्तिम् आश्रित्य केचन अभ्यासाः प्रचलन्तः सन्ति. अस्माकं पुस्तकात् पठन्तः स्मः. 50-100 पुटं पश्यन्तु. पेज् 150 पश्यन्तु. पञ्चाशत् इति स्त्रीलिङ्गपदमस्ति. 50 इति शब्दस्य रूपाणि नित्यम् एकवचने एव भवन्ति. सरित् शब्दवत् रूपाणि भवन्ति. 50-100 पुटं पश्यन्तु. तस्मिन् पुटे द्वितीयबिन्दुतः आरभ्य पठेम. अभ्यासः इति लिखितमस्ति. अभ्यासः इति बिन्दुतः आरभ्य पठेम. तत्र आदौ सूचना दीयते. भगिनी पठतु.
यथोदाहरणं चतुर्थीविभक्तिरूपैः रिक्तस्थानानि पूरयत.
रिक्तस्थानम् इति दत्तमस्ति. रिक्तस्थानम् इत्यत्र समासः कः?
रिक्तस्य स्थानं वा
महोदय, भवान् वदतु.
विग्रहवाक्यं चिन्तयामि.
विग्रहवाक्यं वदतु.
स्थानं रिक्तं च तत् स्थानं च.
रिक्तं स्थानम्.
रिक्तं च तत् स्थानं च. बहुवचने वदतु.
रिक्तानि च तानि स्थानानि.
रिक्तानि तानि स्थानानि. रिक्तानि च तानि स्थानानि च इति भवति. विशेषण पूर्वपद कर्मधारयसमासः अस्ति. रिक्तम् इति पदमस्ति खलु, तत् कीदृशं पदं भवान् वदतु.
क्तान्तपदमस्ति इति चिन्तयामि.
क्तान्तपदमस्ति. भवान् जानाति वा, रिच् इति धातुः अस्ति. रिच् इति धातुः रुधादिगणि अस्ति. विरेचने इति अर्थे अस्ति. विरेचने इत्यस्मिन् अर्थे रिच् धातुः अस्ति. रिच् धातोः परं क्ताप्रत्ययस्य योजनेन रिक्त इति प्रातिपदिकं सिद्ध्यति. रिक्त इति कृदन्तप्रातिपदिकम् अस्ति. तस्मात् सुबन्तपदानि रिक्तं रिक्तः रिक्ता इति रूपाणि साधयितुं शक्नुमः. रिच् धातोः प्रसङ्गे रुधादिगणे अस्ति इति कारणतः कर्तरिप्रयोगरूपाणि साधयितुं किञ्चित् क्लेशः अस्ति, काठिन्यम् अस्ति. सार्वधातुकलकारेषु रूपाणि साधयितुमिच्छामश्चेत् कश्चित् क्लेशः अस्ति. किन्तु कर्मण्यर्थे रूपाणि सुलभतया साधयितुं शक्नुमः. कर्मण्यर्थे रूपं कथं भवति? रिच् धातोः रूपं रिच्यते भवति. रिच् योगः यक् योगः ते, तावदेव. इत्युक्ते कर्मणि प्रयोगरूपाणि सुलभानि सन्ति, किन्तु कर्तरिप्रयोगे रूपाणि साधयितुं तत्र किञ्चित् काठिन्यमस्ति. रुधादिगणीयधातुः कर्तरिप्रयोगे धातोः रूपाणि एवं भवन्ति. ऋणक्ति रिङ्क्तः रिञ्चन्ति, एवं लटिरूपाणि भवन्ति. तेषां रूपसाधनवेलायां बहूनि सूत्राणि आवश्यकानि भवन्ति. कर्मणि लट् अस्ति, रिच्यते. कर्मणि रूपेषु सौलभ्यमस्ति, कर्तरिरूपेषु किञ्चित् काठिन्यमस्ति इति मम अवगमनम्. भगिनी अग्रे करोतु.
सारथिः सारथये सारथिभ्यां सारथिभ्यः चतुर्थीविभक्तिरूपान् दत्तम्. सारथिः इकारान्तपुल्लिङ्गपदमस्ति.
सारथिः इति कथनेन स्वीयवाक्यैः वक्तुमिच्छति वा? सारथिः कः इति पृच्छामि चेत्
अर्जुनस्य सारथिः कृष्णः.
अतः तस्य नाम पार्थसारथिः.
आम्.
कृष्णस्य नाम
पार्थसारथिः.
सरति अश्वान् इति सारथिः इति वक्तुं शक्यते वा?
आम् अग्नि.
सरति इति कीदृशं रूपं
सरति लट्रकाररूपं खलु
श्रुधातुतः सरति साधयितुं शक्नोति खलु
हा भगिनि
श्रुधातुतः सरति साधयतु
श्रुयोगः गण
भुवादिगणे
अस्ति चेत् प्रथमं ति आयाति तत्कारणेन कर्तरि सेप् इत्यनेन सेप् आयाति भुवादिगणे गुणविकरणप्रत्ययः नास्ति कर्तरि सेप् इत्यनेनैव सेप् आयाति श्रुयोगः सेप् सार्वधातुक अर्धधातुकयोः इत्यनेन निरनुबन्धरूपम् आ एव अवशिष्यते श्रुयोगः गुण भवति सर् भवति सर् योगः सर योगः ति वर्णमेलनं सरति
उत्तमं तादृशं चिन्तनमस्ति तत्र रथादि वाहन नियन्ता रथादिवाहननियन्ता रमेश महोदय वदतु नियन्ता इति पदम् अस्ति नियन्ता इति पदं कीदृशं पदम्
नियन्त तान्तपदमस्ति
तान्तमस्ति वा नो चेत् तृज
तृच् अस्ति तृच् अस्ति नियन्तृ नियन्ता
नियन्तृ इति प्रातिपदिकमस्ति रुकारान्तप्रातिपदिकमस्ति तृजन्तरूपमस्ति नियन्ता कस्य नियन्ता रथादिवाहननियन्ता इति सारथिः तत्र नियन्ता इति यम् धातुतः तृच् योजनेन यन्ता इति रूपं सिद्ध्यति तृच् प्रत्ययः कर्त्रार्थकप्रत्ययः केचन प्रत्ययाः कर्त्रार्थकाः अन्ये केचन प्रत्ययाः कर्मार्थकप्रत्ययाः तृच् प्रत्ययः कर्त्रार्थकप्रत्ययः सूर्यकुमारी भगिनी भवती पठतु अग्रे
इकारान्त पुल्लिङ्गपदमस्ति समस्तपदमपि अस्ति सेनायां पतिः वा
सेनायाः
पतिः
अत्र सेनायाः इति कथनेन विभक्तिः का
सेनायाः षष्ठी विभक्ति षष्ठी तत्पुरुष भवति
षष्ठी तत्पुरुषसमासः भवति पञ्चम्यन्तं रूपमपि सेनायाः एव किन्तु अत्र षष्ठीविभक्तेः रूपमेव स्वीकर्तव्यं सेनायाः पतिः सेनापतिः षष्ठी तत्पुरुषसमासः अस्ति अग्रे वदतु
प्रथमाविभक्ति चतुर्थी प्रथमाविभक्तिः सेनापतये सेनापतिभ्यां सेनापतिभ्यः
सेनापतिभ्याम् उक्तवती तत्र किमपि कार्यं नास्ति खलु
भगिनी
सेनापति इति प्रातिपदिकमस्ति भ्यां योजयामः सेनापतिभ्यां सेनापतिभ्यः इत्यत्र किं कार्यमस्ति भ्यस् प्रत्यये परे
सजुहोरुः करवसाने विसर्जनीयः सूत्रेण विसर्गः भवति
उत्तम सेनापति इति ह्रस्वैकारान्तं पदमस्ति ह्रस्वैकारान्तपदस्य घिसंज्ञा भवति शेषोघ्यसखि इति सूत्रेण घिसंज्ञा भवति तादृश घिसंज्ञकस्य अङ्गस्य नित् प्रत्यये परे अत्र ञे इति प्रत्ययः आयति खलु ञे इति प्रत्ययः कः
सुप्रत्यय
सुप्रत्ययः इत्युक्ते चतुर्थी विभक्ति एकवचनप्रत्ययः ञे इति प्रत्ययः अस्ति ञे इति कथनेन तत्र इत्संज्ञकवर्णः कः
नकारः नकारः एव
केन सूत्रेण अपगच्छति
लशक्वतद्धितेन
लशक्वतद्धिते इति सूत्रेण ण्यकारस्य इति संज्ञा भवति तस्य लोपः इत्यनेन तस्य लोपः अपि भवति तेन निरनुबन्ध सुप्रत्ययः ये सेनापतियोगः ये इति स्थितिः अस्ति इदानीं वक्तुमिच्छति वा
सेनापतिः सेनापतियोगः ये ये
रमेश महोदय भवान् वक्तुमिच्छति वा
इति सूत्रेण तत्र सुपि अङ्गस्य सुपि अस्ति तद् ङेर् इति यदस्ति ङित् प्रत्ययः सुप् प्रत्ययः अस्ति तर्हि सुपि प्रत्यये परे ङकार ङित् यत्र इत्संज्ञा अस्ति तादृश गीसंज्ञकस्य अङ्गस्य गुणः भवति तेन सेनापति इति यदस्ति ईकारस्य स्थाने एकारादेशः भवति एकारादेशेन तत्र एचोयवायावः इति सूत्रेण एकारस्य एकारः परे एकारः अस्ति तर्हि एकारस्य स्थाने यकार आदेशः भवति अय एकारस्य स्थाने अय आदेशः भवति ऐ आदेशः भवति हरै योगः पतियोगः ये पतये सेनापतये इति रूपं सिद्ध्यति
उत्तमम् तत्र एकं विशिष्टं सूत्रमायाति घेर्णिति इति सूत्रमस्ति घीसंज्ञक अङ्गमस्ति इत्युक्ते ह्रस्व ईकारान्तम् अङ्गमस्ति सेनापति इत्यत्र ह्रस्व ईकारान्तम् अङ्गमस्ति इति कारणतः शेषोघ्यसखि इति सूत्रेण घिसंज्ञा भवति घिसंज्ञक अङ्गमस्ति सेनापति इति अङ्गं घिसंज्ञक अङ्गमस्ति तस्मात् परं नित्यप्रत्ययः अस्ति ज्ञे इति नित्यप्रत्ययः अस्ति इत्युक्ते ञकारः इति संज्ञकः अस्ति लशक्वतद्धिते इत्यस्मिन् सूत्रे कु इति उक्तमस्ति इत्युक्ते कवर्गीयवर्णः अस्ति चेत् लशक्वतद्धिते इति सूत्रेण तस्य इति संज्ञा भवति इति अर्थः अस्ति अत्र सेनापतियोगः ये इति अस्ति तत्र घेर्निति इति सूत्रेण गुणादेशः भवति इत्युक्ते इकारस्य स्थाने एकारः आयाति तेन सेनापते योगः ये इति स्थितिः अस्ति तस्यां दशायां यचोयवायावः इति सन्धिसूत्रेण केवलं सेनापते इत्यत्र एकारस्य स्थाने एव अय्यादेशः भवति अन्ततो गत्वा वर्णमेलनेन सेनापतये इति रूपं भवति मुनये सारधये सेनापतये ऋषये एवं रूपाणि भवन्ति अग्रे पठतु भगिनि
ऋषिः ऋषिः अपि इकारान्त ह्रस्वैकारान्तपुल्लिङ्गमस्ति ऋषये ऋषिभ्यां ऋषिभ्यः तदेव सेनापति इव एव
सेनापतिः इव ऋषति सर्वान् मन्त्रान् अथवा ज्ञानेन सर्वान् मन्त्रान् पश्यति ज्ञानेन ऋषिः सर्वान् मन्त्रान् पश्यति ऋषयः मन्त्रद्रष्टारः ऋषिः मन्त्रद्रष्टा इति वक्तुं शक्यते दर्शना भगिनी मन्त्रद्रष्टा इति उक्तवती द्रष्टा इति पदं कीदृशं पदम्
प्रत्ययः अस्ति इति मन्ये
रमेश महोदय वदतु
पृच्छति
तृच् अस्ति दृष्टः इति कीदृशं पदम् क्तान्तपदं तत्र भेदः अस्ति खलु दृष्टं दृष्टः इत्यत्र भिन्नकार्यम् अस्ति एकवारं लिखित्वा पश्यन्तु दृष्टं दृष्टः दृष्टा इमानि क्तान्तरूपाणि दृश् धातुतः क्ताप्रत्ययस्य योजनेन सन्धिकार्याणि भूत्वा दृष्टः दृष्टं दृष्टा इत्यादिनुरूपाणि सिद्ध्यन्ति नो चेत् क्तवतु योजनेन दृष्टवान् दृष्टवती दृष्टवत् इत्यादीनि रूपाणि क्तिन् योजनेन दृष्टिः इमानि रूपाणि सिद्ध्यन्ति किन्तु द्रष्टा इत्यत्र भिन्नं कार्यमस्ति रमेश महोदय वदतु दृश् धातुः अस्ति द्रष्टा इति रूपं साधनीयं
दृश् धातुः अस्ति तृच् प्रत्ययः अस्ति तृच् इति प्रत्ययः तृ एव अवशिष्यते
अवशिष्यते
चकारः अलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण अपगच्छति दृश् योगः तृ इति स्थितिः अस्ति दृश् इति तृ इति यद् अस्ति आर्धधातुकप्रत्ययः अस्ति तर्हि धृ इति यद् ऋकारः अस्ति उपधायां ऋकारः अस्ति तर्हि पुगन्तलक्कुपदस्य च इति सूत्रेण गुण भवति द् योगः द दकारः योगः अकारः योगः षकारः इति स्थितिः भवति उरण्परः इति सूत्रेण यत्र अण् अणि स्थान ऋकारस्य स्थाने अण् प्रत्ययस्य आदेशः भवति तत्र रेफः पश्चात् रेफः आगच्छति तर्हि दर् योगः
आर्धधातुकप्रत्यये परे दृश् इत्यत्र पगन्तलघुपधस्य च इति सूत्रेण गुणकार्यं भवति चेत् दर्श् भवति तादृशं चिन्तनं भिन्नम् अत्र एकवारं लिखित्वा पश्यन्तु द्रष्टा द्रष्टा इति कथने दकारोत्तरवर्ति रेफः अस्ति सः रेफः कथम् आगतं तस्य आगमनं कथम् अभवत् इति प्रश्नः उदेति तस्य कृते एकं विशिष्टं सूत्रम् अस्माभिः ज्ञातव्यं सृजिदृशोर्झल्यमकिति इति सूत्रं ज्ञातव्यं तत् सूत्रं जानीमश्चेदेव द्रष्टा द्रक्ष्यति इति रूपमपि साधयितुं शक्नुमः द्रक्ष्यति द्रष्टा द्रष्टव्यम् इति रूपमस्ति वस्तुतः धातुः दृश् अस्ति दृश् इत्यस्मिन् ऋकारः अस्ति किन्तु द्रष्टा द्रष्टव्यं द्रक्ष्यति द्रक्ष्यति इति रूपमस्ति खलु लृट् लकाररूपं लृट् लकारप्रसङ्गे अपि सृज दृशोर्झल्यमकिति इति सूत्रमस्ति तत् सूत्रं सृज धातोः प्रसङ्गे दृश् धातोः प्रसङ्गे एव सृज दृशोः झलि अम् अकिति इति पदानि सन्ति तेन सूत्रेण अमागमः भवति पश्चात् यणादेशः भवति अन्यानि कार्याणि सर्वाणि करणीयानि तेन द्रष्टा इति रूपं सिध्यति द्रष्टव्यं द्रष्टव्यम् इति तव्यत् रूपम् अस्ति खलु तत्रापि इदं सूत्रं कार्यं करोति दृष्टं भिन्नं द्रष्टव्यम् इत्यत्र लेखनशैल्यां वर्णभेदः अस्ति धातुः तु दृश्य अस्ति द्रष्टा द्रष्टव्यं द्रक्ष्यति इत्यत्रापि सृजिदृशोर्झल्यमकिति इति सूत्रम् आयति तेन सूत्रेण अम् आगमः भवति तत् सूत्रं जानीमश्चेदेव रूपं साधयितुं शक्नुमः सूर्यकुमारी भगिनी अग्रे वदतु ऋषयः मन्त्रद्रष्टारः ज्ञानेन सर्वान् मन्त्रान् द्रष्टुं शक्नुवन्ति
गुरुशब्दः भगिनि
करोतु
गुरुः उकारान्त पुल्लिङ्ग पदमस्ति गुरुः गुरवे गुरुभ्यां गुरुभ्यः गुरुयोगः नेप्रत्ययः अस्ति ऊ अस्ति यन्सन्ध् भवति
भगिनी अत्रापि घेर्णिति इति सूत्रं स्मर्तव्यम् किमर्थं चेत् अत्र ह्रस्व उकारान्तशब्दः अस्ति अतः
गुण भवति
अस्य घिसंज्ञा अस्ति घिसंज्ञक अङ्गस्य नित् प्रत्यये परे गुणादेशः भवति घेर्णिति इति सूत्रेण रमेश महोदय वदतु
तत्र गुरुयोगः गुरुयोगः ङे इति स्थितिः अस्ति ङकारस्य इत्संज्ञा लषकोतद्धिते इति सूत्रेण भवति तर्हि गुरुयोगः ए इति भवति गुरु इति गीसंज्ञक अङ्गः अस्ति ङित् ए इति ङित् प्रत्ययः अस्ति तर्हि ङेर्निति इति सूत्रेण गुणः भवति गुणः उकारस्य गुणः भवति तेन गुरु स्थाने गुरो भवति गुरो भवति उकारस्य स्थाने ओकारः आदेशः भवति इदानीम् ओकारस्य एकारस्य ओकारस्य परे अच्वर्णः अस्ति तर्हि एचोयवायावः इति सूत्रेण ओकारस्य स्थाने अव आदेशः भवति गुरव् योगः ए गुरवे इति रूपं सिद्ध्यति
उत्तमं गुरवे इत्यत्रापि घेर्णिति इति सूत्रं कार्यं करोति घेः निति इति अर्थः अस्ति घेः इति कथनेन घिसंज्ञक अङ्गमस्ति इति अर्थः अस्ति नित् प्रत्यये परे निति इति सप्तम्यन्तमस्ति घेः निति घेर्णिति तत्र विसर्गसन्धिकार्यं भवति गुरवे सुबाहवे वटवे शत्रवे विभवे इमानि रूपाणि साधयितुं शक्नुमः. गुरुः इति कथनेन धर्मं गृणाति इत्युक्ते धर्मम् उपदिशति, वेदादिशास्त्राणि गृणाति. गृणाति इति कथनेन सः धातुः क्रियादिगणे अस्ति, गुरु इति धातुः. सूर्यकुमारी भगिनी, गुरु धातुः अस्ति, क्रियादिगणे अस्ति, रूपं साधयतु.
गुरु गुरु ओके. गुरुयोगः क्रयादिगणे विकरणप्रत्ययः अस्ति, स्न गुरुयोगः स्न सकारलोपः भवति, न एव अवशिष्यते. गुरु ऋकारः अस्ति, ऋकारान् नत्वं भवति. गुरुयोगः स्न अपि अस्ति चेत् गुणः भवति, गृणाति भवति.
उत्तमम्. रुवर्णात् नस्य अणत्वं वाच्यम् इति वाक्येन ऋकारस्य प्रभावेण दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आगतः. गृहयोगः श्नायोगः ति, गृहयोगः नायोगः ति, अणत्वं गृणाति. उत्तमं. गृणाति किं गृणाति? धर्मं गृणाति, शास्त्राणि गृणाति. गुणादिसूत्रेण निर्मितम् इति अहं ज्ञातवती. करोति इति कुरुः, गृणाति इति गुरुः. दर्शनभगिनी, भवती अग्रिमं पदं वदतु.
वटवे वटुभ्यां वटुभ्यः.
वटुः कः?
वटुः बालकः यस्य यस्य मौञ्ज्यम् अभवत्.
अस्तु. ब्रह्मचारी इति वक्तुं शक्यते वा?
वक्तुं शक्यते, परन्तु हा परन्तु प्रौढाः अपि ब्रह्मचारी.
कुमारी भगिनी, भवती वक्तुमिच्छति वा? वटुः इत्यत्र गुरुशब्दवत् वक्तव्यम्.
वटुः उकारान्त पुल्लिङ्गपदमस्ति. पूर्वं यदुक्तं घेर् घेर्णिति इति सूत्रेण उकारस्य गुणः भवति, वटो भवति. वटोयोगः ये अवशिष्यते. यचोयवायावः सूत्रेण अवु भवति, वटवे भवति.
उत्तमं. तादृशं चिन्तनमस्ति. घेर्णिति इति सूत्रेण गुणः भवति, पश्चात् यचोयवायावः इति सूत्रेण ओकारस्य स्थाने औ आदेशः भवति, इत्यतः वटवे इति रूपं सिद्ध्यति. शत्रुः इति पदमस्ति. दर्शना भगिनी वदतु.
शत्रवे शत्रुभ्यां शत्रुभ्यः.
शत्रवे इत्यत्रापि वटवे इव शत्रवे इति रूपमपि साधनीयम्. शत्रुः इति रूपं लिखितमस्ति, प्रातिपदिकमस्ति शत्र, किन्तु शत्रन्तरूपाणि इति वदामः खलु, अनयोः पदयोः मध्ये कः भेदः? शत्रुः इति पदमस्ति, तत्र प्रातिपदिकं शत्र, किन्तु शत्रन्तप्रातिपदिकम् इति वदामः खलु, तत्र लेखनशैल्यां भेदः अस्ति, वदतु.
शत्रु तत्र ऋकारः अस्ति.
कुत्र?
शत्रान्त अस्ति तत्र.
इत्युक्ते कृत् प्रत्ययस्य प्रसङ्गे शत्रुप्रत्ययः सार्वधातुक कृत् प्रत्ययः अस्ति, शित्वात् सार्वधातुकः. शत्रुप्रत्ययः इत्यत्र तकारात् परं ऋकारः अस्ति, किन्तु अत्र किमस्ति?
शत्रु अस्ति, शत् रु रेफः.
रमेश महोदय, भेदं वदतु.
तत्र तकार उत्तरवर्ति रेफः अस्ति, रेफात् उकारः अस्ति. शत्रु यत् प्रत्ययः अस्ति तत्र तकार उत्तर ऋकारः अस्ति,
अनुनासिकऋकारः अस्ति खलु शत्रुप्रत्यये.
हा, अनुनासिक अपि अस्ति, तदपि अपगच्छति, तर्हि अनुनासिक भवेत्.
उत्तमं. शत्रु इति लेखनावसरे तकारात् परम् अनुनासिकरुकारः अस्ति तत्र. उपदेशेजनुनासिक इत् इति सूत्रेण अनुनासिकरुकारस्य इत् संज्ञा भूत्वा तस्य लोपः इत्यनेन अपगच्छति. तत्र तकारोत्तरवर्ती अनुनासिकरुकारः अस्ति, किन्तु शत्रुः इत्यस्मिन् पदे किमस्ति, तकारात् परं रेफः अस्ति, तस्मात् परम् ऊकारः अस्ति. इत्युक्ते लेखनशैल्यां तादृशभेदः अस्ति इति स्मर्तव्यम्. षद् शातने इत्यस्मिन् अर्धे एकः धातुः अस्ति. षद् शातने इत्यस्मिन् अर्धे षद् धातुः, षद् धातोः रूपमेव शत्रुः. उणादिप्रत्ययेन निर्मितम् इति मया पठितमस्ति. उणादिपाठः पृथक्तया वर्तते, अष्टाध्याय्याम् उणादिपाठः नास्ति. पृथक्तया उणादिपाठः पठनीयः. उणादिप्रत्ययेन प्रातिपदिकानां निर्माणं भवति. उणादिप्रत्ययाः अपि कृत् प्रत्ययाः एव. उणादिप्रत्ययस्य योजनेन प्रातिपदिकनिर्माणं भवति. तस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च सूत्रेण एव दीयते. उणादिप्रत्ययाः अपि कृत् प्रत्ययाः एव, इत्युक्ते धातुभ्यः विधीयमानाः प्रत्ययाः एव ते अपि. षद् इति धातुः खलु, शातने इत्यस्मिन् अर्धे सः धातुः अस्ति, धातुतः विधीयमानः प्रत्ययाः इत्यतः ते अपि कृत् प्रत्ययाः एव. ऋणादिप्रत्ययानां योजनेन प्रातिपदिकनिर्माणं भवति. प्रातिपदिकं द्विविधम् अस्ति, व्युत्पन्नं प्रातिपदिकम् अव्युत्पन्नं प्रातिपदिकम्. एवं प्रातिपदिकस्य द्वैविध्यम् अस्ति, इत्युक्ते कानिचन प्रातिपदिकानि मूले एव सन्ति, तानि प्रातिपदिकानि अव्युत्पन्नानि, किन्तु व्युत्पन्नानि प्रातिपदिकानि अपि सन्ति. इत्युक्ते धातुतः कृत् प्रत्ययस्य योजनेन प्रातिपदिकस्य रूपाणि साधयामः, तानि एव व्युत्पन्नानि प्रातिपदिकानि. एवं प्रातिपदिकस्य द्वैविध्यम् अस्ति. अत्र शत्रु इति पदं षद् शातने इत्यस्मात् धातुतः निर्मितं पदं. षद् धातोः प्रसङ्गे एव एकं दीर्घं सूत्रं कार्यं करोति. शीय आदेशः भवति. रमेश महोदय, भवान् किं जानाति वदतु उणादिप्रत्ययानां प्रसङ्गे.
उणादिप्रत्ययाः ये पाणिनेः यद् अष्टाध्याय्याम् अस्ति तत्र नास्ति, परन्तु भिन्न प्रत्येकं प्रत्ययस्य अपि अर्थमपि अस्ति इति चिन्तयामि, परन्तु रूपसाधनार्थं तत्र निर्मितम् अस्ति. प्रत्येकम् उणादिप्रत्ययः रूपसाधनार्थं तत्र, परन्तु प्रक्रिया न तत्र न भवति, प्रायः प्रक्रिया नास्ति इति एव अहं चिन्तयामि. उणादिप्रत्ययस्य यत्र भवति तत्र विना प्रक्रिया कथं भवति न जानामि, प्रायः तत् दोषः एव अस्ति. तत्र कृत तिङ् अस्ति उणादिप्रत्यये, तत्र उणादिः अपि अस्ति, तर्हि तत् कृत् प्रत्ययः इव भवति इति अहम्.
उणादिप्रत्ययस्य योजनेन यानि यानि प्रातिपदिकानि निर्मीयन्ते तेषामपि प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च सूत्रेण एव दीयते. किमर्थं चेत् धातुतः विधीयमानाः प्रत्ययाः उणादिप्रत्ययाः, कृदतिङ् सूत्रेण अतिङ्प्रत्ययाः, तेषां योजनेन प्रातिपदिकनिर्माणं भवति, न तु तिङन्तपदस्य निर्माणम्.
भगिनी, शत्रुः पदे उणादिप्रत्यय किं सद् योगः प्रत्यय किं भगिनि?
उणादयो बहुलम्, उणादयो बहुलम् इति एकमेव सूत्रम् अष्टाध्याय्याम् अस्ति. तेन सूत्रेण सर्वे उणादिप्रत्ययाः सङ्गृहीताः, इत्युक्ते सर्वे उणादिप्रत्ययाः एकेन सूत्रेण एव सङ्गृहीताः. रुण् इति दत्तमस्ति भगिनि, रुण् इति प्रत्ययः. प्रत्ययस्य अर्थः कः, तत् किं करोति इति स्पष्टतया ज्ञातव्यम्. उणादिप्रत्ययस्य योजनेन इदं पदं निर्मितम्. उणादिसूत्रमपि अस्ति, किन्तु उणादयो बहुलम् इति एकमेव सूत्रम् अष्टाध्याय्याम् अस्ति. तेन सूत्रेण एव सर्वे उणादिप्रत्ययाः स्वीकृताः इति मम अवगमनम्. अग्रे करोतु.
विभुः उकारान्त पुल्लिङ्गपदमस्ति, विभवे विभुभ्यां विभुभ्यः
विभवे उक्तवती खलु साधयतु विभवे
विभवे विभुयोगः नेप्रत्यय अस्ति गेरनिति इति सूत्रेण उकारः गुण भवति विभो भवति विभो योगः नेप्रत्ययस्य निर्बन्धरूपं ये अस्ति यचो यवायावः सूत्रेण औ भवति औ योगः ये अवे भवति विभवे भवति
तत्रापि घेर्णिति इति सूत्रेण गुणकार्यं भवति विभु इत्यत्र ह्रस्व उकारः अस्ति खलु अयं शब्दः ह्रस्व उकारान्तशब्दः अस्य घिसंज्ञा अस्ति इत्यतः घिसंज्ञकस्य अङ्गस्य णित् प्रत्यये परे गुणादेशः घेर्णिति इति सूत्रेण विभु योगः ञे इत्यस्यां दशायाम् उकारस्य स्थाने गुणः भूत्वा विभो भवति विभो योगः ये तत्र यचोयवायावः इति सन्धिसूत्रेण ओकारस्य स्थाने औ आदेशः भवति इत्यतः विभवे इति रूपं सिध्यति विभुः इत्यत्र धातुः कः वदतु
अहं चिन्तयामि विभु वा
धातुतः निर्मितं पदं भूधातुः
ओ ओके वि उपसर्ग अस्ति भगिनि
वि उपसर्गः अस्ति भूधातुतः निर्मितं पदं किन्तु तत्र प्रत्ययः कः इति मा पृच्छतु विभुः प्रभुः जानाति खलु
प्रायोगः भू
अपि च संयोगः भू इति कथनेन शम्भुः इति पदमपि अस्ति विभुः प्रभुः शम्भुः शम्भुः शम् इति पदमस्ति शंयोगः भूधातुतः एकः विशिष्टप्रत्ययः अस्ति इति भाति शम्भुः इति पदमपि अस्ति इमानि पदानि एकेन विशिष्टसूत्रेण निर्मितानि विभुः प्रभुः शम्भुः इति त्रीणि पदानि एकेन विशिष्टसूत्रेण निर्मितानि प्रभुः इत्युक्ते स्वामी इति अर्थः अस्ति भवती जानाति खलु प्रभुः इत्युक्ते स्वामी
भगिनि
प्रभुत्वम् इत्युक्ते स्वामित्वं खलु उपसर्गभेदेन अर्थः भिद्यते खलु अतः विभुः इति कथनेन अत्र सर्वगतः इति अर्थः दत्तः सुन्दरमहोदय भवान् वदतु पिता प्रसङ्गे
पितृ इति प्रातिपदिकं पित्रे पितृभ्यां पितृभ्यः इति रूपाणि भवन्ति एवं पितृ इति प्रातिपदिकं स्वीकृत्य ज्ञे ज्ञे नित्र इति सूत्रेण पितृ 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 इति ऋकारान्त प्रातिपदिकं तत्र ऋकारस्य रेपः भवति
शुभदा भगिनी अत्र किं कार्यमस्ति पितृयोगः ज्ञे इति प्रत्ययः अस्ति पित्रे इति रूपसाधनवेलायां किं चिन्तनमस्ति
पितृ इति ऋकारान्तशब्दः तत्र एतत्तु घीसंज्ञकशब्दः नास्ति अतः पितृयोगः ङे इत्यस्मात् ए इति अवशिष्यते केवलम् इको यणचि इत्यनेन ए र भवति ऋकारस्य स्थाने रेफः आगच्छति पित्रे इति भवति इति मम चिन्तनम्
पितृ इति ऋकारान्तप्रातिपदिकमस्ति पितृभ्याम् इत्यत्र किमपि कार्यं नास्ति आदौ तु सन्धिकार्यमस्ति इको यणचि इति सन्धिसूत्रेण अत्र ऋकारस्य स्थाने रेफादेशः भवति ञ इति प्रत्ययस्य एकारः अस्ति खलु अतः वर्णमेलनेन पित्रे इति रूपं सिध्यति सुन्दरमहोदय अवगतं खलु
अवगतम्
अग्रिमं पदं विधाता अस्ति वदतु
विधाता विधातृ इति पदमस्ति प्रातिपदिकम् अस्ति विधातृ इति अस्ति विधात्रे विधातृभ्यां विधातृभ्यः इति भवति तत्र तत्रापि समानमेव भवति ऋकारान्तपदस्य इको एणचि इति सन्धिसूत्रेण ऋकारस्य रेफादेशः भवति विधातृ ञे इत्यस्य एकारः एव अवशिष्यते विधातृयोगे ए विधात्रे विधात्रे इति भवति
विधातृ इति प्रातिपदिकम् अस्ति विधाता इति रूपसाधनवेलायां धातुः कः सर्वं वदतु
धातुः ऋकारान्तधातुः तृच् प्रत्ययस्य योजनेन विधातृ इति भवति
विचिन्त्य वदतु अत्र उपसर्गः कः धातुः कः प्रत्ययः कः किं चिन्तनमस्ति
वि इति उपसर्ग पूर्वक धा इति धातुः एवं तृच् प्रत्ययस्य योजनेन विधातृ इति भवति वि उपसर्गः धा इति धातुः तृच् प्रत्ययस्य योजनेन तृ एव अवशिष्यते चकारः हलन्त्यमिति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति एवं वि योगे धा योगे अवशिष्ट भागः तृ विधातृ इति पदं प्रातिपदिकपदं प्रातिपदिकं सिद्ध्यति
विधाता इति रूपसाधनवेलायां बहु किमपि चिन्तनमस्ति नूतनानि सूत्राणि आवश्यकानि भवन्ति सुबन्तपदसाधनवेलायां ऋकारान्तपदेषु अन्यानि सूत्राणि आवश्यकानि प्रातिपदिकं विधातृ अस्ति प्रथमाविभक्तिरूपं विधाता अस्ति स्त्रीलिङ्गे किं वक्तव्यम्
विधात्री इति भवति
अत्र धा धातुः धारणपोषणयोः इत्यस्मिन् अर्थे धा धातुः अस्ति विधाता कः
विधाता ब्रह्मा एव विधाता
ब्रह्मा इत्यत्र रूपाणि वदतु
ब्रह्मन् इति प्रातिपदिकं भवति ब्रह्मा ब्रह्माणौ ब्रह्माणः इति रूपाणि सिद्ध्यन्ति अत्र चतुर्थीविभक्तिरूपं ब्रह्मा ब्रह्माणौ ब्रह्मणा ब्रह्मणे इति भवति चतुर्थीविभक्तिरूपं ब्रह्मणे इति भवति
ब्रह्मा इति पदस्य लिङ्गं किम्
ब्रह्म इति पदस्य लिङ्गं पुल्लिङ्गम् अस्ति
न विधाता इत्यत्र पुंलिङ्गमेव पुंलिङ्गमेव किन्तु नपुंसकलिङ्गे अपि ब्रह्मशब्दस्य रूपाणि सन्ति वदतु
आम् ब्रह्म ब्रह्मणि ब्रह्माणि ब्रह्म ब्रह्मणि ब्रह्माणि तदनन्तरं ब्रह्मणा ओके ब्रह्मणा ब्रह्मणे ब्रह्मणः ब्रह्मणः ब्रह्मणि
उत्तमं नपुंसकलिङ्गे अपि पदम् अस्ति प्रातिपदिकं नकारान्तप्रातिपदिकम् अस्ति नपुंसकलिङ्गे अस्ति चेत् ब्रह्म ब्रह्मणि ब्रह्माणि रूपाणि भवन्ति किन्तु पुंलिङ्गे अस्ति चेत् ब्रह्मा ब्रह्माणौ ब्रह्माणः
ब्रह्माणौ ब्रह्माणः देन् ब्रह्मणा ब्रह्मणे ब्रह्मणः ब्रह्मणः ब्रह्मणि
द्वितीया बहुवचनं वदतु
द्वितीया बहुवचनं ब्रह्माणं ब्रह्माणौ ब्रह्माणः ब्रह्माणः एव
रमेश महोदय वदतु पुंलिङ्गरूपं द्वितीयाविभक्तिपर्यन्तं वदतु
ब्रह्मा ब्रह्माणौ ब्रह्माणः ब्रह्माणं ब्रह्माणौ ब्रह्मणः
ब्रह्मणः इति वक्तव्यमस्ति अस्तु साधु महोदय विदधाति इति विधाता इति वक्तुं शक्यते वा विदधाति विदधाति इति कीदृशं पदं भवान् वदतु सुन्दरमहोदय विदधाति
करोति इति अर्थं भवति
विदधाति तत्र धा धातुः कस्मिन् गणे अस्ति
धा धातुः अस्मिन् धा धातुः जुहोत्यादिगणे अस्ति
जुहोत्यादिगणे अस्ति चेत् किं भवति
द्वित्वं भवति प्रथमं वि पूर्वक धा धातोः प्रथमं धा धा इति भवति तदनन्तरं ह्रस्वः इति सूत्रेण प्रथमस्य ह्रस्वः भवति ध धा भवति तदनन्तरं चुहोकुः इति सूत्रेण धा धकारस्य दकारः भवति दधा अभ्यासे चर्चा इति सूत्रेण दधाति इति भवति सो वि पूर्वक दधाति विदधाति इति भवति
विदधाति वि उपसर्गपूर्वक धा धातुतः ल्युट् योजनेन
विधानम् इति भवति विधानम्
विधानम् अस्ति धा धातुः अस्ति चेत् विधानं भवति किन्तु अल्पप्राणदकारयुक्तः धातुः अस्ति चेत् दानं भवति खलु
दानं दानं भवति
द्वयोः धातोः अर्थः भिद्यते विधानम् इत्यत्र धा धातुः अस्ति किन्तु दानम् इत्यत्र केवलम् अल्पप्राणदकारः अस्ति यः विधानं जानाति सः
यः विधानं जानाति सः विधजः
नो चेत् यः शास्त्रं जानाति शास्त्रज्ञः
शास्त्रज्ञः ओ सोरि ओके शास्त्रज्ञः ओके
सर्वं जानाति
सर्वज्ञः
अल्पं जानाति
अल्पज्ञः
किञ्चित् जानाति
किञ्चिज्ञः
विधानं जानाति
सः विधाज्ञः
विधानज्ञः
विधानज्ञः ओके विधानज्ञः ओके
अग्रे सरेम दर्शना भगिनी भवती वदतु अग्रे किं लिखितं
क्षम्यतां भगिनि पृष्ठसङ्ख्या का वयं कुत्र स्मः
पञ्चाशत् अधिक एकशतं पृष्ठं
कर्तृ इति प्रातिपदिकम् एकारान्त पुंलिङ्गशब्दः तत्र कर्त्रे कर्तृभ्यां कर्तृभ्यः इति रूपाणि
कर्ता इति रूपं दत्तमस्ति अत्र धातुः कः
कृ
कृ धातुतः प्रत्ययः कः
तत्र तृच् अस्ति किं भगिनि
तृच् अस्ति उत्तमं क्रू धातुः अस्ति तृच् प्रत्ययः अस्ति तत्र किं चिन्तनमस्ति तृच् प्रत्ययः आर्धधातुकप्रत्ययः क्रू इति धातुः ईगन्तधातुः तदा किं चिन्तनं
गुणः भवति
सुन्दरमहोदय भवान् वदतु
धातुः तस्य तृच् प्रत्ययस्य योजनेन किं भवति आर्धधातुकप्रत्ययः तृच् प्रत्ययः आर्धधातुक कृत् प्रत्ययः अस्ति कृयोगे तृ भवति अधुना गुणः भवति आर्धधातुक प्रत्ययः इति योजनेन सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति कृ क भूत्वा तदनन्तरम् उरण्डपरः इति सूत्रेण कर् भवति कर् योगे तृ चकारस्य तृच् प्रत्ययस्य चकारः इत्संज्ञा भूत्वा लोपः भवति कर् योगे तृ कर्तृ इति प्रातिपदिकं सिद्ध्यति
स्त्रीलिङ्गे
स्त्रीलिङ्गे कर्तृ इति रूपं सिद्ध्यति नपुंसलिङ्गे कर्तृ एव
कर्तृ इति प्रातिपदिकमस्ति कर्तृ इति प्रातिपदिकं स्वीकृत्य स्त्रीलिङ्गे नीप् इति प्रत्ययस्य योजनेन कर्त्री इति रूपं सिद्ध्यति तत्र सूत्रमस्ति ऋण्येभ्यो नीप् इति सूत्रमस्ति शुभदा भगिनि किञ्चित् वक्तुमिच्छति वा ऋण्येभ्यो नीप् इति सूत्रं किं करोति
अहं सम्यक् न जानामि भगिनि क्षम्यताम्
ऋकारान्तप्रातिपदिकमस्ति खलु ऋण्येभ्यो नीप् कर्तृ इत्यत्र ऋकारान्तप्रातिपदिकमस्ति इति कारणतः स्त्रीप्रत्ययः नीप् इति प्रत्ययः विहितः भवति नीप् इत्यत्र पकारः हलन्त्यम् इत्यनेन इत्संज्ञकः भवति ञकारः लशक्वतधिते इत्यनेन इत्संज्ञकः भवति तयोः लोपः भवति ई एव अवशिष्यते तेन कर्त्री इति रूपं सिद्ध्यति तत्र ऋकारान्तप्रातिपदिकमस्ति भवती एव करोतु अग्रे भूमिः इत्यत्र किमस्ति
अहम् अधुना न प्राप्तवती कस्मिन् पृष्ठे
151 पेज् पश्यतु
भूमिः इति ह्रस्वैकारान्त स्त्रीलिङ्गशब्दः तस्य घीसंज्ञा भवति इति मन्ये तस्य मतिः वत् शब्दानि भवन्ति शब्दाः भवन्ति रूपाणि भवन्ति अत्र चतुर्थी एकवचनप्रत्ययः ङे इति अस्ति चेत् तत्र तत्र रूपद्वयं भवति भू तत्र दत्तमस्ति भूमये भूम्यै इति भवति तत्र ङितिरस्वश्च इति एकं सूत्रं तत्र कार्यं करोति इति मन्ये ङितिरस्वश्च इत्यनेन विकल्पेन एकस्मिन् पक्षे नदीसंज्ञा भवति एकस्मिन् पक्षे घीसंज्ञा एव तिष्ठति यत्र घीसंज्ञा भवति तत्र घेर्ङिति इत्यनेन गुणः भूत्वा मते इति भूत्वा मते ए तदनन्तरम् एचो यवायावः इत्यनेन मतय ए मतये इति भवति यत्र नदीसंज्ञा भवति तत्र तु मतियोगः ङे मतियोगः ए तत्र आण्नद्याः आण्नद्याः इति एकं सूत्रम् अस्ति तत्र आट् इति आगमः भवति ङित् प्रत्यये परे अतः मति आट् नि आद्यन्तौ टकितौ इत्यनेन आद्यावयवः भवति आ इति अवशिष्यते आ ए इति भवति चेत् तत्र आटश्च इत्यनेन वृद्धिः भवति ऐ भवति मति योगः ऐ इति भवति इको यणचि इत्यनेन मत्यै इति भवति अतः मतये मत्यै इति रूपद्वयं मति इत्यस्य कृते तादृशमेव भूमि इत्यस्य कृते भूमये भूम्यै इति रूपद्वयं भवति
बहु सम्यक् रमेश महोदय भवान् करोतु विभूतिः इत्यत्रापि तादृशं चिन्तनमेव भवति विभूतिः इत्यत्रापि नितिह्रस्वश्च इति सूत्रेण नित् प्रत्यये परे नदीसंज्ञा विकल्पेन भवति इत्युक्ते एकस्मिन् पक्षे नदीसंज्ञा भवति अन्यस्मिन् पक्षे घिसंज्ञा तिष्ठति करोतु विभूतिः
विभूतिः यत्र नदीसंज्ञा स्वीकुर्मः प्रथमं घीसंज्ञकस्य वदामहे यत्र घीसंज्ञा घीसंज्ञा स्वीकुर्मः तत्र विभूति विभूति इति प्रातिप विभूति इति प्रातिपदिकमस्ति ङे इति प्रत्ययः अस्ति ङित् प्रत्ययः अस्ति ङे इति प्रत्ययः लशकोत्तद्दिते इति सूत्रेण ङकारस्य इत्संज्ञा भूत्वा अपगच्छति एकारः एव तिष्ठति तत्र ङेर् णिति इति सूत्रेण गुणः
सूत्रमस्ति घेर्णिति खलु
घेर्णिति ङकारः इति श्रूयते वा घेर्णिति घेर्णिति इति गीसंज्ञकस्य अङ्गस्य ङित् प्रत्यये परे गुणः भवति तत्र इकारः इकारस्य गुणः भूत्वा एकारः भवति यत्र एकारः भवति एकारः पश् एकारः परम् एकारः अस्ति तर्हि एचोयवायावः इति सूत्रेण एकारस्य स्थाने अयादेशः भवति विभूतय योगः ए विभूतये इति रूपं सिद्ध्यति
संज्ञा तिष्ठति चेत् इदं रूपं खलु
यत्र गीसंज्ञा नास्ति नदीसंज्ञा एव भवति गीसंज्ञा तिष्ठति वा
नदीसंज्ञा विकल्पेन
कति इति सूत्रेण तत्र गीसंज्ञा न भवति वा
अत्र
नितिहस्य इति सूत्रेण नदीसंज्ञा भवति इति मम चिन्तनम् आसीत् नदीसंज्ञा एव अस्ति तर्हि नितिह्रस्वश्च इति सूत्रेण विकल्पेन नदीसंज्ञा भवति यत्र नदीसंज्ञा न भवति तत्र शेषोज्ञसखी इति सूत्रेण प्रायः ङीसंज्ञा प्राप्नोति
वदतु
तर्हि यत्र नदीसंज्ञा भवति तत्र विभूतियोगः विभूतियोगः ए इति भवति तत्र आन् नद्याः इति सूत्रेण आकार आन् नद्याः इति सूत्रेण आडागमः भवति विभू आडागमः टित् अस्ति प्रत्ययस्य आडागमः भवति तर्हि प्रत्ययस्य आदौ एव भवति आयोगः ए इति स्थितिः अस्ति तत्र आटश्च इति सूत्रेण द्वयोः स्थाने इति अहं चिन्तयामि, द्वयोः स्थाने आटश्च इति सूत्रेण द्वयोः स्थाने ऐका वृद्धि आदेशः भवति,
एकादेशः
एकादेशः वृद्धि आदेशः भवति, तर्हि आकार अपि च एकारस्य स्थाने ऐकारः भवति, इदानीं स्थितिः भवति विभूतियोगः ऐ, इकारस्य परे अचि अचवर्णः अस्ति, तर्हि इकोयणचि इति सूत्रेण इकारस्य यकारः भवति, विभूत्यै इति रूपं सिद्ध्यति।
बहु सम्यक्, रूपद्वयमस्ति। भूमिः शब्दस्य प्रसङ्गे भूमये भूम्यै इति रूपद्वयम्, एवमेव विभूतिः इत्यत्रापि विभूतये विभूत्यै इति रूपद्वयमस्ति, मूर्तिः इत्यत्रापि तादृशं चिन्तनमेव भवति, मूर्तये मूर्त्यै इति रूपं सिद्ध्यति। भूमिः इति कथनेन भवन्ति भूतानि अस्मिन्, भवन्ति भूतानि अस्मिन्। विभूतिः इति पदं कीदृशं पदम्?
विभूतिः इति तिन् पदमस्ति,
तिन् भूधातोः तिन्पत्यस्य योजनेन विभूतिः,
विभूतिः क्तिन् इति प्रत्ययः अस्ति, वि उपसर्गपूर्वक भूधातुतः क्तिन् प्रत्ययः अस्ति, स्त्रियां क्तिन् इति सूत्रेण स्त्रीलिङ्गपदानि भवन्ति क्तिन् प्रत्ययान्तपदानि। इतोपि चिन्तनं किमस्ति क्तिन् प्रसङ्गे? क्तिन् इति प्रत्ययः तकारादिप्रत्ययः, तकारः वलादिः अवशादिः, अर्धधातुककृतप्रत्ययः, अर्धधातुकस्य वलादेः इति सूत्रेण वलादि अर्धधातुकप्रत्ययः एव, अपि च नेड् वशीकृति इति सूत्रस्य प्रसङ्गः अपि अत्र नास्ति, किमर्थं चेत् अत्र तकारः अवशादिः, किन्तु अयं प्रत्ययः अनिट् प्रत्ययः, किमर्थं? क्तिन् प्रत्ययः अनिट् प्रत्ययः भवति, यद्यपि सः प्रत्ययः वलादिप्रत्ययः वशादिः नास्ति, अवशादिः वलादिः चेदपि अनिट् एव, किमर्थं चेत् तदर्थम् एकं विशिष्टं सूत्रमस्ति, तीतु त्राता थासीसु सरकसेषु च इति एकं विशिष्टं सूत्रमस्ति, तस्मिन् सूत्रे दश कृत् प्रत्ययाः उक्ताः, तेषु दशप्रत्ययेषु कृत् प्रत्ययेषु इडागमः न भवति तेन विशिष्टसूत्रेण, अतः क्तिन् प्रत्ययः अनिट् भवति, यद्यपि सः प्रत्ययः वलादिः अवशादिः अनिट् एव, अतः इडागमः न भवति। पश्यन्तु, भू इति धातुः सेट् धातुः एव, भूधातुः सेट्, अतः लृट् लकाररूपं किं भवति? भविष्यति, इत्युक्ते धातुः सेट्, लृट् लकारस्य स्या प्रत्ययः अपि सेट् प्रत्ययः, अतः इडागमः भूत्वा भविष्यति इति रूपमेव सिद्ध्यति। वस्तुतः धातुः तु सेट् धातुः एव, किन्तु क्तिन् प्रत्ययः अनिट् प्रत्ययः, अतः इडागमयोग्यत्वं नास्ति, अतः भूतिः इति रूपं सिद्ध्यति, इडागमः न कदापि दृश्यते क्तिन् प्रत्ययान्तरूपेषु। भूतिः, स्थितिः, मतिः, गतिः, पश्यन्तु, इडागमः न कदापि दृश्यते। विभूतिः इति कथनेन कः अर्थः? कोऽपि वदतु।
ऐश्वर्यम् इति,
ऐश्वर्यम् इति तद्धितान्तं पदं, विग्रहवाक्यं वदतु।
ईश्वरस्य भावः ऐश्वर्यम्,
किन्तु लोके किमर्थं भस्म इत्यस्मिन् अर्थे तस्य व्यवहारः क्रियते?
भस्मः इत्यपि व्यवहारः अस्ति।
शुभदा भगिनी वदतु, किमर्थं लोके विभूतिः इति कथनेन भस्म इत्यस्मिन् अर्थे लोकव्यवहारः दृश्यते? अस्ति खलु तादृशव्यवहारः? भस्म इति शब्दस्य प्रातिपदिकं वदतु।
न जानामि भगिनि।
भस्मन्, भस्मन्
प्रातिपदिकं, भस्मन् इति, हा ओके,
भस्मन्। तत्र रूपाणि वदतु, नपुंसकलिङ्गमस्ति।
हा, तत्र भस्मन् इति अस्ति खलु।
सुन्दरमहोदय वदतु।
भस्मानि, भस्मनि, भस्मानि, तादृशं भवति।
उत्तमं, नपुंसकलिङ्गपदम् इदं नकारान्तप्रातिपदिकमस्ति, भस्मन् प्रातिपदिकमस्ति, नपुंसकलिङ्गपदमस्ति इत्यतः भस्म, भस्मनि, भस्मानि, ब्रह्म, ब्रह्मणि, ब्रह्माणि इव, एवमेव अत्रापि भस्म, भस्मनि, भस्मानि एवं रूपाणि भवन्ति। मूर्तिः इति पदं दत्तमस्ति. सूर्यकुमारी भगिनी भवती वदतु
किमर्थं विभूतिः
इति पदं विभूतिः इत्यस्य सिद्ध्यति
न जाने.
तमिळ् भाषायां विभूतिः एव भस्म, सामान्यप्रयोगः एव विभूतिः.
लौकिके विभूतिः अर्धे भस्मं भवति इति उक्तं.
पदानाम् अर्थः द्विविधः अस्ति. लोके पदस्य रूढार्थः भिन्नः, किन्तु पदस्य व्युत्पत्तिवेलायां चिन्तनं भिन्नम् अस्ति. इत्युक्ते योगार्थः भिन्नः, रूढार्थः भिन्नः. विभूतिः इति पदस्य योगार्थः भिन्नः, किन्तु लोके तस्य रूढिः भिन्नरीत्या भवति.
अत्र शब्दकल्पद्रुमे भगिनि किं लिखितमस्ति इति कृत्वा शिवधृतभस्म अस्य शिवस्य अणिमादि अष्टप्रकारं वैभवं विभूत्यादि पदत्रयं वाच्यं. केचित्तु विभूतिः भूतिः इति द्वयं शम्भुधृतभस्मानि अणिमादि अष्टके तु ऐश्वर्यम् इति आहुः. शिवस्य ऐश्वर्यम् इति अर्थे शिवधृतभस्म शिवस्य ऐश्वर्यम् इति अणिमादि अष्टप्रकारं वैभवम्.
अष्टसिद्धयः सन्ति खलु. अणिमा इत्यत्र कः प्रत्ययः अस्ति सुन्दरमहोदय वदतु. अणिमा
अणिमा इति अणिमन् प्रत्ययः. अणिमानौ अणिमानः इति
प्रातिपदिकमस्ति. अणिमन् अस्ति तत्र इमनिच् इति प्रत्ययः अस्ति.
महिमा इव महिमन् अपि अस्ति किल. महिमा महिमानौ महिमानः इमनिच् प्रत्ययस्य
इमनिच् इति प्रत्ययः अस्ति. इमनिच् प्रत्ययस्य योजनेन अणिमा महिमा लघिमा
गरिमा
गरिमा इमानि पदानि इमनिच् प्रत्ययान्तपदानि सन्ति. अणिमादि अष्टसिद्धयः इति कथनेन अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यम् अष्टसिद्धयः. अष्टसिद्धिनवनिधिकेदाता इति अस्ति खलु. हनुमान् चालीसा इत्यस्मिन् अस्ति अष्टसिद्धिनवनिधिकेदाता इति. शुभदा भगिनी भवती एव करोतु.
मूर्तिः तदपि इकारान्त घीसंज्ञक शब्दः. तत्र ङीतिरस्वश्चैत्यनेन तस्य विकल्पेन नदीसंज्ञा भवति. चतुर्थी विभक्ति विभक्तेः विभक्तेः प्रसङ्गे ङि इति प्रत्ययः ए इति अवशिष्यते. तत्रापि ङित् प्रत्ययः परे अस्ति इति कारणात् ङितिरस्वश्च इत्यनेन नदीसंज्ञा. अपि च एकस्मिन् पक्षे घेर्ङिति इत्यनेन घीसंज्ञा अस्ति चेत् घेर्ङिति इत्यनेन गुणः भूत्वा मूर्तये इति भवति. यत्र नदीसंज्ञा भवति तत्र आण् नद्याः इत्यस्य आड् आगमे कृते आटश्च इत्यनेन वृद्धिः कृते मूर्त्यै. तदनन्तरम् इको यणचि इत्यनेन यणादेशे कृते मूर्त्यै इति भवति. मूर्तये मूर्त्यै इति रूपद्वयं. तदनन्तरं मूर्तिभ्यां मूर्तिभ्यः इति
अस्तु. ह्रस्व इकारान्त स्त्रीलिङ्गशब्दः अस्ति इति कारणतः निति ह्रस्वश्च इति सूत्रेण नित् प्रत्यये परे एव इत्युक्ते ञ इति प्रत्ययः नित् प्रत्ययः अस्ति. नित् प्रत्यये परे नदीसंज्ञा विकल्पेन भवति. मूर्तिः इत्युक्ते प्रतिमा इति वक्तुं शक्यते. मूर्तिः इति अपि क्तिन् प्रत्ययान्तपदं.
धातुः
मूर्च्छिति धातुः. प्रतिमा इत्यस्मिन् अर्थे अपि भवति, विग्रहः इत्यस्मिन् अर्थे अपि भवति. तनुः धेनुः रज्जुः त्रीणि पदानि सन्ति. एतेषां प्रसङ्गे रमेश महोदय भवान् करोतु.
तनुः तनुः तनवै तत्र विकल्पेन द्वितीयरूपं नास्ति वा? गीसंज्ञकः नास्ति वा? धेनुः इति रूपम् अस्ति.
किमर्थं न दत्तम् इति न जाने. अस्ति धेनुः इत्यत्र धेनवे इति रूपमस्ति, धेन्वै इति रूपमस्ति. एवमेव तनुः इत्यत्रापि रूपद्वयम् अस्ति.
तनवे तन्वै इति रूपद्वयं भवेत्. तर्हि यत्र गीसंज्ञकः यत्र नदीसंज्ञकः विकल्पेन प्राप्नोति तत्र तन्वै इति रूपं सिद्ध्यति. यत्र गीसंज्ञकः अस्ति तत्र तनवे इति रूपं भवति. तनुभ्यां तनुभ्यः तनवे इति रूपं गीसज्ञकः घेर् निति इति सूत्रेण गुणः भवति ङित् प्रत्ययस्य पूर्वस्य अङ्गस्य गीसञ्ज्ञक अङ्गस्य गुणः भवति गुणः भूत्वा एकार ऊकारस्य स्थाने ओकारः आगच्छति एचोयवायावः इति सूत्रेण ओकारस्य स्थाने अवादेशः भवति तनव योगः ये तनवे इति रूपं सिद्ध्यति तन्वै इति यत्र नदीसंज्ञकः अस्ति तत्र एकारस्य आन् नद्याः इति सूत्रेण आडागमः भवति तत्पश्चात् आटश्च इति रूप सूत्रेण द्वयोः स्थाने ऐका वृद्धि आदेशः भवति ऐकारः भवति इकोयन इकोयनचि इति सूत्रेण उकारस्य स्थाने वकारः तन्वै इति रूपं सिद्ध्यति
उत्तमं तनुः इति ह्रस्व उकारान्तशब्दः स्त्रीलिङ्गशब्दः ह्रस्व उकारान्तनित्यस्त्रीलिङ्गशब्दः अस्ति इत्यतः नितिह्रस्वश्च सूत्रेण नित् प्रत्यये परे नदीसंज्ञा विकल्पेन भवति इत्युक्ते नदीसंज्ञा यस्मिन् पक्षे भवति तत्र भिन्नं रूपम् अन्यस्मिन् पक्षे घिसंज्ञा तिष्ठति इत्यतः भिन्नं रूपं सिद्ध्यति एवमेव अत्र धेनुः इत्यत्रापि धेनवे इति रूपम् अस्ति धेन् वै इति रूपमपि अस्ति किमर्थम् अत्र न दत्तम् इति अहं न जानामि तनुः तनुः इत्यत्र धातुः कः
तन् इति धातुः अस्ति
तन् धातुः तनादिगणीयप्रथमसदस्यः खलु इत्युक्ते तनादिगणीयप्रथमसदस्यः तन् धातुः तन् धातुतः निर्मितं पदमेव तनुः तन् धातुः तनुविस्तारे इत्यस्मिन् अर्थे अस्ति तन् धातोः रूपमेव तनयः खलु
तनयः
स्त्रीलिङ्गे किं भवति
तन्वी
न न अत्र तनयः इति पुंलिङ्गपदं तनया इति भवति खलु तनया इति स्त्रीलिङ्गे रूपं भवति तनया इत्युक्ते दुहिता दुहिता इत्यत्र प्रातिपदिकं किं
दुहितृ
दुहितृ इति भवति
तेनैव आङ्ग्लभाषा डाटर् इति यत् पदमस्ति तद् दुहितृ इति एव तस्य मूलपदमस्ति
एवं वा वदतु
डाटर् ब्रदर् भ्राता डाटर् दुहितृ पिता फादर् पितृ सर्वं माता मातृ सर्वं इण्डो यूरोपियन् यद् भाषा आसीत् तेन एव निर्मितं रूट् वर्ड् सर्वम् एकमेव अस्ति
विश्वधातुतः विजा विश्व इति धातुः अस्ति किल
तदेव तदेव अस्ति
पदं विश्वधातुतः विसा इति पदं सिद्ध्यते
तत्र विद् इति धातुः अस्ति इति प्रोटो यूरोपियन् धातुः यदस्ति विद् अस्ति विश् नास्ति तदेव
न न विश्वेव विश्वेव प्रविशति प्रवेश प्रवेशमेव
तत्र वीड् इति दत्तमस्ति विद् विद् एव तस्य इति ते वदन्ति तद् सम्यक् वा इति वा अहं न जानामि परन्तु तत्र तदेव दत्तमस्ति
पूर्वस्मिन् वर्गे वयम् उक्तवन्तः खलु धेनुः धयति सुतान् धीयते वत्सैः धयति इति कर्तरिलट् रूपं धीयते इति कर्मणि लट् रूपमस्ति तत्र धातुः धेट् धेट् इति कथनेन तत्र टकारः हलन्तीमित्यनेन इत्संज्ञकः भूत्वा अपगच्छति धे इति धातुः पानार्थे अस्ति सः धातुः इति मया पठितमस्ति अपि च भगिनी उक्तवती गते वर्गे सवत्सा गौः एव धेनुः नवप्रसूतिका गौः इति एव धेनुः अग्रिमं पदद्वयमस्ति चमूः वधूः एतयोः प्रसङ्गे शुभदा भगिनी भवती करोतु
रज्जुः रज्जुः अपि अति किम्
अस्तु रज्जुः प्रसङ्गे भवान् वदतु
रज्जुः रज्जु रज्जवः रज्जुं रज्जु रज्जूः स्त्रीलिङ्गपदम्
अत्र चतुर्थी विभक्त्यन्तं रूपं वदतु
चतुर्थी विभक्त्यन्तं रज्जवे रज्वै इति रज्जवे रज्वै इति
रज्जुः नाम किं
रज्जुः नाम धाम इत्युक्ते धाम उदरे यस्य सः दामोदरः तदेव
रोप् इति साधु महोदय अत्र पश्यतु धाम भिन्नं दाम भिन्नं तत्र भेदः कः
धाम इति रेस्टिङ्ग् प्लेस् रेस्टिङ्ग् रेसिडेन्स् धाम इत्युक्ते रज्जुः
अत्र भेदः कः धाम भिन्नं दाम भिन्नं
तत्र प्राण दकारस्य उपयोजनेन दाम इति पदं सिद्ध्यति सः एव रज्जुः एवं महाप्राण धकारस्य योजनेन धाम इति पदं तदेव रेसिडेन्स् इति वसन् वसति
दाम इति उक्तवान् दाम इत्यत्र प्रातिपदिकं किम् अस्ति
दामन् नकारान्तप्रातिपदिकं दाम दामनी दामानि दाम दामनी दामानि नकारान्त नपुंसकलिङ्ग
नपुंसकलिङ्गपदमस्ति किन्तु अहं किं पठितवती इत्युक्ते स्त्रीलिङ्गे अपि तस्य रूपम् अस्ति दामनी इति रूपमपि अस्ति इत्युक्ते कानिचन पदानि लिङ्गद्वये अपि भवितुम् अर्हन्ति नपुंसकलिङ्गे रूपम् अस्ति दाम दामनी दामानि दाम दामनी दामानि एवं रूपाणि भवन्ति दाम इति कथनेन रज्जुः इति एव अर्थः अस्ति किन्तु स्त्रीलिङ्गे अपि रूपम् अस्ति इति मया पठितं दामनी इति बन्धनसाधनं पशुबन्धनसाधनं बन्धनम् इति किं रूपम्
बन्धनम् इति रूपं ल्युडन्तरूपं बध् धातोः बध्नाति इति पदस्य ल्युडन्तं रूपं बन्धनम् इति बध् धातुतः ल्युड् ल्युडन्तं प्रत्ययस्य योजनेन बन्धनम् इति पदं सिद्ध्यति
भगिनी भवती वदतु धातुः तु बन्ध् अस्ति बन्ध् धातुः बन्ध् धातोः प्रसङ्गे बध्नाति इत्यत्र भिन्नचिन्तनमस्ति बन्धनम् इत्यत्र भिन्नचिन्तनमस्ति भवती वदतु अत्र भेदः कः धातुः तु बन्ध्
बन्ध् आम् बन्ध इति बन्ध बन्धने
क्रियादिगणे अस्ति
हा हा बध्नाति इति रूपं भवति क्रियादिगणस्य श्ना इति प्रत्ययः तत्र भवति तत्र नकारस्य लोपः भवति तत्र सूत्रमस्ति अनिदितां हलौपधायाः किङ् इति सूत्रमस्ति तत्र श्ना इति प्रत्ययस्य योजनेन श्ना इति प्रत्ययः तु ङित्वत् व्यवहरति यतोहि अपित् प्रत्ययः अस्ति इत्यनेन सार्वधातुकमपित् इत्यनेन तस्य ङित्वत् भावः भवति अतः ङित् प्रत्ययः परे अस्ति इति कृत्वा बन्ध इत्यस्मात् नकारस्य उपधायां यः नकारः अस्ति तस्य लोपः भवति अपि च बन्ध इति अनिदित् धातुः अस्ति तस्य इत्संज्ञा उपदेशावस्थायाम् इत्संज्ञा तत्र न भवति बन्ध इति एव उपदेशावस्थायां धातुः अस्ति तत्र इदित् नास्ति इति कारणात् तत् अनिदित् अस्ति तस्य हलन्तधातुः अस्ति अनिदित् अस्ति तस्य उपधायां स्थितस्य नकारस्य लोपः भवति ङिति प्रत्यये परे श्ना इति ङित्वत् प्रत्ययः अतः बन्धयोगश्ना बध् योगश्ना बध्नाति इति भवति परन्तु बन्धनम् अत्र तु बन्धयोगः ल्युट् इति प्रत्ययः ल्युट् इत्यस्मात् यु इति अवशिष्यते यु इति
युवरनाकौ
युवरनाकौ परन्तु अहं चिन्तयामि तत्र ङित्वत् भवति वा कथं तत्र तु आर्धधातुकप्रत्ययः अतः इति कारणात् तत्र कितिङिति इति चिन्तनं नास्ति इति मन्ये
सार्वधातुक अपित् प्रत्ययः अस्ति चेदेव नित्वत् प्रवर्तते सार्वधातुकम् अपित् इति अतिदेशसूत्रमस्ति इति कारणतः सार्वधातुक अपित् प्रत्ययः एव नित्वत् प्रवर्तते तत्र श्ना प्रत्ययः सार्वधातुकः अपित् च अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् प्रवर्तते अतः क्निति च सूत्रेण गुणनिषेधः अपि च अनिदितां हलौपधाया क्निति इति सूत्रेण नकारलोपः भवति बन्धनं वदतु
युवोरनाकौ इत्यनेन तत्र अन इति आयाति बन्धयोगः अन बन्धयोगः अन बन्धन तत् नपुंसकलिङ्गे भवति इति कृत्वा बन्धनम् इति भवति तत्र नकारस्य लोपः न भवति तत्र
उत्तमं तत्र वस्तुतः धातुः तु बन्ध् एव बन्धयोगः अन बन्धन इति रूपं बन्धनम् इति ल्युडन्तपदमस्ति, किन्तु बन्धधातोः लट्लकार प्रथमपुरुष एकवचनरूपं बध्नाति अस्ति, तत्र नकारलोपः भवति. इत्युक्ते द्वयोः चिन्तनवेलायां भेदः अस्ति खलु.
सत्यम्.
उत्तमं महोदय, अवगतं खलु सुन्दरमहोदय? उत्तमं. माता स्वसा इति पदद्वयमस्ति, तत्र किं चिन्तनमस्ति रमेश महोदय वदतु.
मातृ इति प्रातिपदिकम् अस्ति, मातृ इति रूपं साधनार्थं किमपि न भवति, केवलं सन्धिकार्यं भवति. मातृ ऋकारस्य स्थाने रेफः आगच्छति. इकोयणचि इति सूत्रेण एव रेफः आगच्छति, मातृ इति रूपं सिद्ध्यति. मातृभ्यः मातृभ्यः तत्र किमपि कार्यमपि नास्ति. भ्यः इत्यत्र ससजुषोरुः कर्वसानयोर्विसर्जनीयः इति कार्यद्वयं भवति.
सम्यक्. स्वसा इत्यत्र
स्वस्रे स्वसृभ्यां स्वसृभ्यः स्वस्रे इत्यत्रापि मात्रैव कार्यं भवति,
तत्रापि सन्धिकार्यमेव स्वस्रे इत्यत्र. स्वसृ इति ऋकारान्तप्रातिपदिकं खलु, तत्र ऋकारः अस्ति, सन्धिकार्यम् इकोयणचि इति सूत्रेण इक्वर्णस्य स्थाने यण् वर्णादेशः भवति, तत्र ऋकारस्य स्थाने रेफादेशः भवति. इकोयणचि प्रसङ्गे पूर्वपरयोः एकादेशः नास्ति, केवलम् इक्वर्णस्य स्थाने एव यण् वर्णादेशः भवति, ऋकारस्य स्थाने एव रेफादेशः. अतः स्वस्रे इति रूपं सिद्ध्यति. अग्रिमं पदमस्ति वारि. सूर्यकुमारी भगिनी भवती रूपाणि वदतु.
वारि इकारान्त नपुंसकलिङ्गपदमस्ति. चतुर्थीविभक्ति वारिणे वारिभ्यां वारिभ्यः भवति. प्रथमाविभक्तिः वारि वारिणी वारीणि. दधि अपि तदेव, दधि दधिने दधिभ्यां दधिभ्यः.
दधिने भवति वा नो चेत् दध्ने भवति वा?
दधिने भवति.
दध्ने भवति.
दध्ने भवति. दध्ने इति रूपं भवति. तत्रापि विशिष्टानि सूत्राणि आवश्यकानि. वारिणे इत्यस्मिन् प्रसङ्गे तत्र नुमागमः भवति. वारि इति प्रातिपदिकम् अस्ति, किन्तु तत्र एकेन विशिष्टसूत्राणि नुमागमः भवति चेत् वारिन् इति भवति. वारिन् रेफकारणात् णत्वं भवति. अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण रेफः निमित्तमस्ति इति कारणतः अट्कुप्वाङ्नुं व्यवायेपि सूत्रेण दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आयाति. वारिन् योगः ये वारिणे भवति आदौ, पश्चात् वारिणे भवति. मधुशब्दस्य प्रसङ्गे अपि मधुने इति रूपं. सूर्यकुमारी भगिनी मधु वस्तु द्वयोः प्रसङ्गे वदतु.
मधु मधुने मधुभ्यां मधुभ्यः. वस्तु वस्तूनि वस्तुने वस्तुभ्यां वस्तुभ्यः.
वस्तुने वस्तुभ्यां वस्तुभ्यः इति. अग्रे किञ्चित् पठित्वा समापयाम. शुभदा भगिनी अग्रिमानि वाक्यानि भवती करोतु.
आवरणे विद्यमानस्य शब्दस्य चतुर्थी विभक्तिरूपेण रिक्तस्थानानि पूरयत. उदाहरणार्थं माद्री पुत्राभ्यां, पुत्रौ अस्ति चेत् तस्य पुत्राभ्याम् इति भवति. खाद्यं ददाति. पुत्रौ इति द्विवचने द्वौ पुत्रौ, अतः तस्य पुत्राभ्याम् इति चतुर्थी विभक्ति द्विवचनं भवति.
माद्री इति मद्र इति प्रातिपदिकात् निर्मितं खलु.
आमां.
तद्धितान्तं पदं मद्रे जाता अथवा मद्रे भवा माद्री इति स्त्रीलिङ्गरूपं भवति. मद्रदेशः अस्ति खलु. मद्र इति प्रातिपदिकं स्वीकृत्य तद्धितान्तपदमस्ति इति कारणतः आदिवृद्धिः भूत्वा माद्र भवति, किन्तु स्त्रीलिङ्गरूपं साधयितुम् इच्छामश्चेत् नी प्रत्ययस्य योजनेन माद्री इति रूपं सिद्ध्यति. खाद्यम् इति कीदृशं रूपम्?
खाद्यं यत् प्रत्ययः भवति वा इति चिन्तयामि.
ण्यत्
रुह लोर्ण्यत् तदेव सूत्रं वा?
तदेव रुहलोर्ण्यत्
रुहलोर्ण्यत्
अत्र हलन्तधातुः कः?
खाद् इति हलन्तधातुः, अतः तस्य तस्मात् परं ण्यत् इति प्रत्ययः भवति. ण्यत् इत्यस्मात् य इति अवशिष्यते, खाद्य इति भवति. तदपि नपुंसकलिङ्गे भवति इति मन्ये.
तत्र त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति.
ओ अस्तु.
कर्मपदस्य विशेषणं भवति खाद्यं, खाद्यः, खाद्या रूपाणि भवन्ति.
ओके. केवलं कार्यम् इति श्रुतवती, सर्वदा इति कार्यमेव भवति. कार्यं कार्यः वा कार्या वा न श्रुतवती, अतः मम चिन्तनम् आसीत् नपुंसकलिङ्गे एव भवति वा इति.
रमेश महोदय, भवान् किं चिन्तयति अत्र?
ण्यत्प्रत्ययः त्रिषु लिङ्गेषु भवति इति एव अहं चिन्तयामि.
किल
भावार्थे नपुंसकलिङ्गे एव भवति.
एवं काव्यः दोनं भवति. यदि स्त्रीलिङ्गपदम् अस्ति तस्य विशेषण रूपेण कार्या इति भवति.
कर्मपदस्य विशेषणं कर्मार्थकप्रत्ययः. भगिनी भवती पुत्राभ्याम् इति उक्तवती, पुत्राभ्याम्. तत्र सुपि च कार्यं वदतु.
पुत्र इति अकारान्त पुल्लिङ्गशब्दः, पुत्रयोगः भ्याम् इति चतुर्थी द्विवचनस्य विवक्षायां भ्याम् प्रत्ययः, अपि च पञ्चमी षष्ठी तृतीया चतुर्थी पञ्चमी, अत्र तु चतुर्थी एव. पुत्रयोगः भ्याम् इति भवति चेत् पुत्र इति अदन्तमङ्गमस्ति इति कृत्वा सुपि च इत्यनेन अदन्तस्य अङ्गस्य दीर्घं भवति इति मन्ये, अतः पुत्रा इति भवति. तदनन्तरं प्रकृतिप्रत्ययमेलनेन पुत्राभ्याम् इति भवति.
बहु सम्यक्. सुपि च सूत्रं किं वदति इत्युक्ते ययादि सुप्रत्यये परे अदन्ताङ्गस्य दीर्घादेशः. अत्र ययादि सुप्रत्ययः इति कथनेन भकारादिप्रत्ययः अस्ति. भ्यां प्रत्ययः भकारादिप्रत्ययः, भकारः यै प्रत्याहारे अस्ति. ययादि सुप्रत्यये परे अदन्तस्य अङ्गस्य दीर्घादेशः. अत्र पुत्र इति अदन्तम् अङ्गम् अस्ति. अपि च तस्मात् परं भ्याम् इति प्रत्ययः भकारादिः इत्युक्ते ययादिः इत्यतः अदन्तङ्गस्य दीर्घादेशः पुत्राभ्याम्. खाद्यम् इत्युक्ते भक्षणीयम् इति अस्ति. भक्षणीयम् इत्यत्र प्रत्ययः कः?
अनियर्.
अनियर् अस्ति. अग्रिमं वाक्यं सुन्दरमहोदय भवान् करोतु.
महोदय, कार्यं यदासीत् तत्र प्रायः नपुंसकलिङ्गमेव दृश्यते. काशिकायामपि तदेव नपुंसकलिङ्गस्य उदाहरणमेव दत्तमस्ति.
उपन्यासे अन्ध रामायणे महाभारते तत्र सर्वत्र दृश्यते. कार्या कार्यः द्वयमपि दृश्यते, बहुवारं दृश्यते. वाल्मीकिरामायणे अपि आगच्छति. ऐ विल् ऐ गिव् यू एक्साम्पल्स्, एनी एक्साम्पल्स्. नारायणीयम् ए अपि
प्रत्यय भिन्न अस्ति वा महोदय? यत् प्रत्यय अस्ति वा?
यत् प्रत्ययस्य त्रीणि रूपाणि सन्ति. कार्यः, कार्या, कार्यं, त्रीणि रूपाणि सन्ति. सर्वलिङ्गेषु सर्वेषु लिङ्गेषु रूपाणि सन्ति.
अस्तु, अग्रे सरेम. सूर्यकुमारी भगिनी भवती करोतु अग्रिमं वाक्यं.
भटः अश्वै जलं दत्तवान्. भटः अश्वाभ्यां जलं दत्तवान्. द्वितीय चतुर्थी विभक्ति क्षम्यतां भगिनी, द्विवचनचतुर्थविभक्ति अश्वाभ्याम्.
अत्रापि अश्व इति अदन्तप्रातिपदिकमस्ति इत्यतः सुपि च सूत्रेण दीर्घादेशः भवति इत्यतः अश्वाभ्याम् इति रूपं सिद्ध्यति खलु
भगिनि
उत्तमं दत्तवान् इत्यत्र तवतु रूपमस्ति दत्तवत् प्रातिपदिकमस्ति त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति किन्तु दा धातोः रूपमस्ति तत्र दो दद्घोः इति सूत्रेण दा स्थाने दत् आदेशः भवति पश्चात् खरिच सूत्रस्य कार्यमपि अस्ति अग्रिमं वाक्यं
सः मित्रे पुस्तकं ददाति सः द्विवचनमस्ति मित्रे मित्राभ्यां पुस्तकं ददाति
अत्र मित्रम् इत्यस्य लिङ्गं किम्
मित्रं नपुंसकलिङ्गं भगिनि
मित्रशब्दस्य पुंलिङ्गरूपं किम् अस्ति
सखी
मित्रम् इति नपुंसकलिङ्गे अस्ति मित्रः इति पदमपि अस्ति
अर्कः सूर्यः
मित्रः इत्युक्ते सूर्यः
आम् आम् सूर्यः
सूर्यः इति
मित्राय नमः
मित्राय नमः खलु
भगिनि
मित्राय नमः इत्यत्र नमः इति कथयितुं सूत्रं किम् अस्ति रमेश महोदय वदतु नमः स्वस्ति
स्वाहा स्वधा अलं वषट् योगाच्च इति सूत्रेण चतुर्थी विभक्ति भवति
उपपदचतुर्थी
भवति
उपपदचतुर्थी विभक्तिः भवति भवन्तः सर्वे जानन्ति एव एकः श्लोकः अस्ति न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः अर्धतस्तु निबध्यन्ते मित्राणि रिपवस्तथा इत्युक्ते यः कोऽपि मित्रं नास्ति अथवा रिपुः अपि नास्ति केवलम् अस्माकं व्यवहारेण एव मित्रं वा अथवा रिपुः भवति कश्चिदपि न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः अर्धतस्तु इत्युक्ते व्यवहारेण एव जायन्ते कारणेन एव जायन्ते मित्राणि वा रिपवः वा इति तत्र अर्थः अस्ति किन्तु मित्रः इति कथनेन सूर्यः अग्रिमं वाक्यं करोतु सूर्यकुमारी भगिनी
अनुजा बन्धु मधुरं दत्तवती बन्धु द्विवचनमस्ति अनुजा बन्धुभ्यां मधुरं दत्तवती बन्धुभ्यां भगिनी
बन्धुभ्यां तत्र किमपि कार्यं नास्ति
हा भगिनी उकारान्तधातु अस्ति
बन्धुयोगः भ्यां वर्णमेलनमेव
आम्
अनुजायते इति अनुजा अनुजायते इत्युक्ते पश्चात् जायते इति अर्थः
यङ्गर् सिस्टर् या या
अग्रजा इति कथनेन
अग्रजायते अग्रज
बन्धुः इत्यस्य अर्थः कः इति अहं दृष्टवती अतः वदन्ती अस्मि स्नेहादिना मनः बध्नाति स्नेहादिना मनः बध्नाति इति बन्धुः अग्रिमं वाक्यं दर्शना भगिनी भवती करोतु
राजा गुरु उपायनानि ददाति गुरु द्विवचने अस्ति गुरुभ्यां राजा गुरुभ्याम् उपायनानि ददाति उपायनानि तत्र गिफ्ट्स् इति
गुरुभ्याम् इत्यत्र किं कार्यमस्ति किमपि नास्ति गुरुयोगः भ्याम् इति प्रत्ययं योजयामः केवलं वर्णमेलनं तत्र किमपि कार्यं नास्ति गुरुयोगः चतुर्थिविभक्ति द्विवचनप्रत्ययः भ्याम् अस्ति अत्र गुरुभ्यां राजा इति पदस्य प्रातिपदिकं किम्
राजन्
राजन् रूपाणि वदतु द्वितीयापर्यन्तम्
राजा राजनौ राजनः
अत्र रमेश महोदय वदतु स्पष्टतया
राजा राजानौ राजानः राजानं राजानौ राज्ञः राज्ञा राजभ्यां राजभिः राज्ञे राजभ्यां राजभ्यः राज्ञः राजभ्यां राजभ्यः राज्ञः राज्ञोः राज्ञां राज्ञी राजनोः राज्ञीषु
राज्ञि राज्ञोः
राजसु राज्ञोः राजसु राज्ञोः राजनोः अस्ति वा
राजसु
राजसु राजसु एव अस्ति तत्
राजा राजानौ राजानः राजानं राजानौ राज्ञः तथा रूपाणि भवन्ति राजन् इति प्रातिपदिकमस्ति दर्शनभगिनी अग्रे करोतु
पितामहः पौत्रौ
राजा इति पदम् अन्यत्र अपि अस्ति राजा इति तृतीया विभक्त्यामपि अस्ति राजा इति पदम्
अत्र विषयः कः इत्युक्ते राजन् नकारान्तपदस्य प्रसङ्गे वयं चिन्तनं कुर्वन्तः स्मः किन्तु राट् इति पदं भिन्नं पदम् अस्ति राजन् इति नकारान्तपदस्य रूपाणि परिशीलयामः राट् शब्दः भिन्नशब्दः राजन् शब्दः भिन्नशब्दः राजा इति राट् शब्दस्य तृतीयारूपं भवति इति भिन्ना वार्ता राजन् इति नकारान्तप्रातिपदिकम् अस्ति चेत् तृतीया विभक्ति एकवचनरूपं राज्ञा इति एव भवति अस्मिन् विषये वदतु
राजा राजानो राजनः तद् तत्र राज्ञा एव भवति तृतीया विभक्त्यां राट् इति एकं शब्दमस्ति तत् साधु एव सम्राट् इति यत् वदामः तत् तस्य प्रातिपदिकं राट् संयोगः राट् एव सम्राट् इति भवति
उत्तमं सुन्दरमहोदयेन यदुक्तं तत्तु साधु एव किन्तु तत्पदं राट् इति शब्दः भिन्नशब्दः अस्ति किन्तु अत्र राजा इति प्रथमा विभक्ति एकवचनरूपं दत्तमस्ति प्रातिपदिकं राजन् अस्ति दर्शना भगिनी करोतु
पितामहः पौत्रौ गीतां ददाति पौत्र इति तत्र प्रातिपदिकं पौत्राभ्यां पितामहः पौत्राभ्यां गीतां ददाति
अदन्तप्रातिपदिकम् अस्ति इति कारणतः सुपि च सूत्रेण एव दीर्घादेशः भवति अदन्तम् अङ्गमस्ति पौत्र इति अतः सुपि च सूत्रस्य कार्यं भूत्वा पौत्राभ्याम् इति भवति पुत्रस्य पुत्रः पौत्रः पुत्रस्य अपत्यं पुमान् इति वक्तुं शक्यते पुत्र्याः पुत्रः कः
दुहितु दुहितु अस्ति किल
दौहित्रः
दौहित्रः
पुत्रस्य पुत्रः पौत्रः किन्तु दुहितुः पुत्रः दौहित्रः दुहिता इति ऋकारान्तशब्दः अस्ति दुहितृ इति प्रातिपदिकमस्ति तस्य षष्टिविभक्ति एकवचनरूपं दुहितुः मातुः पितुः इव दुहितुः इति षष्ट्यन्तं पदमस्ति दुहितुः पुत्रः दौहित्रः पुत्रस्य पुत्रः पौत्रः
पौत्रः
पितामहः कः
पितामहः पितुः पिता
मातुः पिता कः
मातामहः
मातुः माता
मातामही मा उक्तवती भगिनि
मातामहं
भगिनि
चिन्ता मास्तु
चिन्ता नास्ति भगिनि तत्र किं
भवती करोतु अग्रे
भ्रातरौ वस्त्राणि यच्छामि अहं भ्रातृभ्यां वस्त्राणि यच्छामि तत्र भ्रातृ इति प्रातिपदिकं द्विवचने अस्ति तदर्थं भ्रातृभ्यां
भ्रातृभ्याम् इत्यत्र किमपि चिन्तनं नास्ति केवलं वर्णमेलनमेव भ्रातृ इति प्रातिपदिकम् अस्ति भ्रातृयोगः भ्याम् इति प्रत्ययः अस्ति वर्णमेलनेन भ्रातृभ्याम् इति भवति किन्तु चतुर्थीविभक्ति एकवचनं भ्रात्रे अस्ति तत्र किं चिन्तनं
तत्र इदानीं पित्रे विधाता सर्वेषां कृते कृतवन्तः
यणादेशः भवति इको यणचि सूत्रेण भ्रातृ इत्यत्र ऋकारः अस्ति सन्धिकार्यमस्ति इको यणचि इति सूत्रेण ऋकारस्य स्थाने रेफादेशः भूत्वा भ्रात्रे इति रूपं सिध्यति भ्रातृभ्याम् इति द्विवचनरूपमस्ति अग्रे करोतु
भक्तः मूर्ति पुष्पाणि समर्पयति भक्तः मूर्तिभ्यां पुष्पाणि समर्पयति तत्र मूर्ति इति प्रातिपदिकम् इकारान्तस्त्रीलिङ्गपदं
भक्तः इति भज् धातोः रूपमस्ति पुष्पाणि इत्यत्र णत्वमस्ति वदतु
तत्र शकारः अस्ति तदर्थं नत्वं भवति तत्र बाधितुं वर्णाः नास्ति
पकारः अस्ति चेदपि तत्र बाधा नास्ति शकारः एव निमित्तमस्ति पुष्पस्य अन्यानि पर्यायवाचकपदानि वदतु कुसुमं
कुसुमः
प्रसूनम्
अस्ति किं तां न जानामि
कुसुम तु जानामि परन्तु
प्रसूनं
प्रसूनं न जानामि प्रसूनं
सुमनः सुमनः अपि
सत्यं सत्यं
प्रसूनं इति अहं श्रुतवती कुसुममपि अहं श्रुतवती
प्रसूनं तु बहु प्रसिद्धं अस्ति किल पदं प्रसूनः प्रसूनं तु प्रसिद्धं पदमस्ति
पुष्पस्य प्रसङ्गे पुष्प इति धातुः अस्ति रमेश महोदय भवान् वदतु पुष्पितम् इति कीदृशं रूपम्
शान्तपदमस्ति
पुष्पितम् इत्युक्ते विकसितं खलु
पुष्पयोगः तान्तपदम् इडागमः भवति पुष्पी इति भवति पुष्पितम् इति भवति
धातुः अपि इडनुकूलधातुः क्ताप्रत्ययः अपि इडनुकूलः इत्यतः इडागमः भूत्वा पुष्पितम् इति क्तान्तपदं सिद्ध्यति नपुंसकलिङ्गे पुष्पितम् इत्युक्ते विकसितं भवान् श्रुतवान् वा पुष्पिताग्रम् इति छन्दोविशेषः अस्ति
मया न श्रुतं
छन्दसः प्रसङ्गे पुष्पिताग्रम् इति छन्दः अस्ति पुष्पितम् इव अग्रं यस्य तत् इति वक्तुं शक्यते छन्दसः नाम अस्ति पुष्पिताग्रं समर्पयति इत्यत्र सम् उपसर्गः अस्ति अर्पि इति निजन्तधातुः अस्ति लटीरूपं समर्पयति इति सूर्यकुमारी भगिनी भवती वदतु अर्पयति इति लटीरूपम् अस्ति लङ् रूपं वदामश्चेत् किं वदामः
अर्पति निजन्त लङ् भगिनि
अर्पयति इति निजन्तरूपम् अर्पयति इति निच्युक्तं लटीरूपम् अस्ति निच्युक्तं लङ् रूपं वक्तव्यम्
लङ् रूपं सं संयोगः अर्पयति आगमः भवति आट् आगमः भवति
आड् आगमः भवति सूत्रं किम् अस्ति आडजादीनाम्
आडजादीनाम् आम् सत्पायत् सत्पायत् भवति समार्पयत् भवति
समार्पयत् भवति बहु सम्यक् भगिनि समार्पयत् भवति तत्र चिन्तनं किमस्ति इतोपि स्पष्टतया वदतु
उपसर्ग अनन्तरमेव आट आगमः भवति संयोगः आयोगः अर्पयत् सवर्णदीर्घसन्धि भवति समार्पयत्
अत्र इतोपि चिन्तनमस्ति रमेश महोदय भवान् वदतु समर्पयति इति रूपम् अत्र दत्तमस्ति तत्तु साधु एव किन्तु लङ् रूपं वक्तुम् इच्छामश्चेत् समार्पयत् इति रूपं भवति सम् उपसर्गः अस्ति अर्पयति इत्यत्र अर्पि इति धातुः अस्ति तत्र आडजादीनां कार्यम् अस्ति तत्र आडागमः भवति वदतु
आडागमः भवति आड् योगः अकारः द्वयोः स्थाने आटश्च इति सूत्रेण वृद्धिः भवति आ एव द्वयोः स्थाने आकारः भवति आकारः वृद्धिवर्णः तर्हि आर् योगः पयत् आर्पयत् सिद्धप्रत्ययः अस्ति तत्र आर्पयत् इति स्वीकुर्मः
पश्चादेव उपसर्गं योजयामः खलु
क्षम्यतां भगिनि अहं वदामि सवर्णदीर्घसन्धि तत् नास्ति आटच्च इत्यनेन वृद्धिः एव भवति
उत्तमं सवर्णदीर्घसन्धिं प्रबाध्य
आटच्च आगच्छ वृद्धिः भवति तदेव भगिनि
बहु सम्यक् आडजादीनाम् इति सूत्रेण आडागमः पश्चात् आकार अकारयोः मध्ये आटश्च इति सूत्रेण द्वयोः प्रसङ्गे सवर्णदीर्घसन्धिं प्रबाध्य वृद्धि आदेशः भवति तेन आर्पयत् यथा महोदयेन उक्तं तत्र लङ्लकारप्रसङ्गे प्रथमपुरुषे एकवचन सिद्धप्रत्ययः तकारः अस्ति इति कारणतः आर्पयत् इति रूपं सिद्ध्यति सम् उपसर्गः अस्ति इति कारणतः समार्पयत् इति रूपं लङ् रूपं सिद्ध्यति दर्शना भगिनी भवती एव वदतु अग्रे किमस्ति
भवान् धेनु तृणानि दत्तवान् भवान् धेनुभ्यां तृणानि दत्तवान् त तत्र कार्यं नास्ति
भवान् शब्दस्य प्रातिपदिकं किं
भवत्
त्रिषु लिङ्गेषु रूपाणि वदतु
भवान् भवन्तौ भवन्तः भवती भवत्यौ भवत्यः भवत् भवत् द्विवचने किम् अस्ति भवती
भवन्ति
भवन्ति
नपुंसकलिङ्गे अपि अस्य पदस्य रूपाणि सन्ति
सत्यं
त्रिषु लिङ्गेषु भवत् प्रातिपदिकस्य रूपाणि सन्ति गृहं गृहाणि इति वदामः तत्र णत्वं भवति किन्तु तृणं तृणानि तत्र णत्वं नास्ति किमर्थम्
गृहं गृहाण
गृहं गृहाणि तत्र तु णत्वम् अस्ति किन्तु तृणं तृणानि
तत्र गृह तत्र तृणानि तृणानि सत्यं तृणानि तत्र
णकारः
णकारः नकारस्य परे न एव भवति णत्वं न भवति
सुन्दरमहोदय भवान् वदतु गृहम् इत्यत्र गृहाणि वदतु
गृहम् इत्यस्य गृहाणि इति भवति तत्र अट्कुप् वाङ्मु व्यवायेपि इति सूत्रेण ऋकारः रेपः इव कार्यं करोति गृ हकारः बाधकवर्णः नास्ति इति कारणेन तत्र णकारं श्रूयते गृहाणि इति
हकारः कस्मिन् प्रत्याहारे अस्ति
हकारः हयवरट् हकारः अट् प्रत्याहारे अस्ति
अट् प्रत्याहारे हकारः अस्ति अट् कुप् वाङ्नुं व्यवायेपि इति सूत्रेण अत्र णत्वं भवितुं शक्नोति हकारः अट् प्रत्याहारस्थ वर्णः किन्तु तृणानि इत्यत्र किं चिन्तनम्
णकारः अस्ति णकारः बाधकवर्णः अस्ति अट्कुप्वाङ्ग् तस्य बाधक वर्णः अस्ति इति कारणेन तत्र णत्वं न भवितुम् अर्हति
भवान् श्रुतवान् खलु भवदीयं भवदीयः भवदीया इति रूपाणि जानीमः एव भवतः इदं
भवतः इदं भवदीयं
भवतः अयं
भवतः अयं भवदीयः
मम इदं
मदीयं
मदीयं मदीयं पुस्तकं
मदीयं पुस्तकं विशेषणमेव कार्यं करोति
इमानि पदानि तद्धितान्तपदानि भवदीयं मदीयं त्वदीयम् अग्रिमवाक्यं भवान् करोतु
कृष्णः मातरौ वस्त्राणि दत्तवान् कृष्णः मातृभ्यां वस्त्राणि दत्तवान् तत्र तत्रापि कोऽपि कार्यं नास्ति मातृयोगेभ्यां मातृभ्यां वस्त्राणि इति पदे ऋकारान्त रेफः अस्ति इति कारणेन तत्र णकारं श्रूयते णकारः भवति
रेफदन्त्यनकारयोः मध्ये के के वर्णाः सन्ति
आकारः आकारः अस्ति वस्त्र आकारः अस्ति आकारः बाधकवर्णः नास्ति अट्कुप् वाङ्ने वाङ्नुं व्यवायेपि इति सूत्रेण तत्र णकारं भवति
आकारः कस्मिन् प्रत्याहारे अस्ति
आकारः आङ् अट्कुप् अट् प्रत्याहारे एव अस्ति
अट् प्रत्याहारे अस्ति आकारः अतः णत्वं भवति अन्तिमं वाक्यम्
अन्तिमं वाक्यं पिता पुत्र्यौ शाटिकां दत्तवान् पुत्र्यौ पिता पुत्रीभ्यां शाटिकां दत्तवान् पुत्री इति पुत्री इति प्रातिपदिकं भवति किल
पुत्री इति प्रातिपदिकमस्ति
प्रातिपदिकमस्ति पुत्री योगे भ्यां वर्णमेलनमेव पुत्री योगेभ्यां पुत्रीभ्यां इति पदम्।
पुत्री इति प्रातिपदिकमस्ति, नदी शब्दवत् रूपं साधनीयं। रमेश महोदय, नदी शब्दवत् पुत्री इत्यत्र एकवचनरूपं वदतु, पुत्र्यै वदतु।
पुत्र्यै, हा, तत्र आन्नद्याः इति सूत्रेण आडागमः भवति, आटश्च इति वृद्धि भवति, एचोयवायाहडानन इकोयनचि इति इकारस्य स्थाने यकारः, तर्हि पुत्र्यै इति रूपं सिद्ध्यति।
बहु सम्यक्। तत्र नदीशब्दवत् पुत्री इत्यत्रापि रूपं साधनीयमस्ति, नदी नद्यै, पुत्री पुत्र्यै। अत्र विकल्पेन रूपद्वयं नास्ति, एकमेव रूपं, नदी इति दीर्घ ईकारान्तशब्दः, अतः नद्यै इति रूपं सिद्ध्यति, पुत्री पुत्र्यै इति भवति। यथा महोदयेन उक्तम् आण् नद्याः इति सूत्रेण आट् आगमः भवति, पुत्री योगः आट् योगः ये इति स्थितिः अस्ति, आट् इति टित् आगमः अस्ति, टकारस्य इत्संज्ञा अस्ति, इत्संज्ञकवर्णानां लोपकार्यानन्तरम् आ एव अवशिष्यते, पुत्रीयोगः आयोगः ये इति स्थितिः अस्ति, पश्चात् आकार एकारयोः मध्ये आटश्च इति सूत्रेण वृद्धिः पूर्वपरयोः स्थाने एकादेशः भवति, इत्युक्ते पूर्वपरयोः स्थाने ऐकारः भवति आटश्च सूत्रेण, पुत्रीयोगः ऐकारः, ईकार ऐकारयोः मध्ये ईको यणच् सूत्रेण यणादेशः, पुत्र्यै इति रूपं सिद्ध्यति, यणादेशः भवति इत्यतः एव तत्र यकारः आगतः, पुत्र्यै इति रूपं सिद्ध्यति। अस्तु, अग्रिमे सप्ताहे चतुर्थविभक्तेः प्रसङ्गे अन्यान् अभ्यासान् करिष्यामः, इदानीम् अत्र स्थगयामः। सर्वेषां धन्यवादाः।
धन्यवादः।
धन्यवादः भगिनी।
धन्यवादः भगिनी।